प्रथम स्कंध अथ सप्तमोध्याय अश्वत्थामा द्वारा द्रौपदी के पुत्रों का मारा जाना और अर्जुन के द्वारा अश्वत्थामा का मान मर्दन। शौनक उवाच निर्गते नारदे सुत भगवान बादरायण श्रुतवांस्तदभिप्रेतम ततः किम करद विभुः। श्री सुत उवाच ब्रह्मनद्यां सरस्वत्याम आश्रम पश्चिमे तटे सम्याप्रासेति प्रोक्त ऋषीणां सत्रवर्धनः तस्मिन् स्वयाश्रमे व्यासो बदरी संडमंडिते आसीनोपस्पृश्य प्रणिदध्यौ मनः स्वयं भक्तियोगेन मनसि सम्यक् प्रणिहिते मले अपश्यत् पुरुषं पूर्वं मायां च तदपाश्रयाम् यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकं परोपि मनुते नर्थं तत्कृतं चाभिपद्यते अनर्थोपशमं साक्षात् भक्तियोगमधोक्षजे लोकस्या जानतो विद्वांश्चक्रे सात्वत संहितां जस्यां वैश्रूयमाणायां कृष्णे परमपुरुषे भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा स संहितां भागवतीं कृत्वा अनुक्रम्य चात्मजं सुखमध्यापयामास निवृत्तिनिरतं मुनिः। शौनक उवाच सवै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः कस्य वा बृहतीमेतामात्मा रामः समभ्यसत्। सुत उवाच आत्मा रामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे कुर्वन्ति हैतुकीं भक्तिम् इत्थं भूतगुणो हरिः। हरेर्गुणाप्षिप्तमतिर्भगवान् बादरायणिः अध्यगान महदाख्यानं नित्यं विष्णुजनप्रियः परीक्षितोऽथ राजर्षेर्जन्म कर्म विलापनं संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम्। जदा मृधे कौरवसृञ्जयानां वीरे स्वथो वीरगतिं गतेषु वृकोदरा विद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे भर्तुः प्रियं द्रोणीरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि उपाहरद्विप्रियमेव तस्य जुगुप्सितं कर्म विगर्हयन्ति। माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना तदारुरद्वाष्पकलाकुलाक्षि तां सान्त्वयन्याः किरीटमाली तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिरयाततायिनः गाण्डीव मुक्तैर्विशिखैरुपाहरे त्वाक्रम्य जत्स्ना शशिदग्धपुत्रा इति प्रियाम्बल्गुविचित्रजल्पैः स शान्तयित्वा चितमित्रसूतः अन्वाद्रवद्दंसित उग्रधन्वा कपीध्वजो गुरुपुत्रं रथेन तमापतन्तं सविलक्ष्य दूरात् कुमारहो दिग्नमनारथेन पराद्रवत् प्राणपरीप्सुरुर्भ्याम् यावद्गमं रुद्रभयाद्यथार्कः यदा शरणमात्मानम् ऐक्षत श्रान्तवाजिनम् अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः अथोपस्पृश्य सलिलं संदधे तत्समाहितः अजानन् उपसंहारं प्राणकृच्छ्र उपस्थिते ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् प्राणापद्मभिप्रेक्ष्य विष्णुं जिष्णुरुवाचः। अर्जुन उवाच कृष्ण कृष्ण महाबाहो भक्तानाम भयं कर त्वमेको दह्यमानानाम अपवर्गोऽसि संसृतेः त्वमाद्यः पुरुषः साक्षात् ईश्वरः प्रकृतेः परः मायां विदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि स एव जीवलोकस्य मायामोहितचेतसः विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् तथायं चावतारस्ते भुवो भारजिहीर्षया स्वानां चानन्यभावानाम् अनुध्यानाय चासकृत् किमिदं सित्कुतो वेति देवदेवन वेद्म्यहम् सर्वतो मुखमायाति तेजः परम दारुणम्। श्री भगवान वाच वेत्थेदं द्रोणपुत्रस्य ब्राह्ममस्त्रं प्रदर्शितम् नैवासौ वेद संहारम् प्राणबाधौ उपस्थिते न ह्यस्यान्यतमं किञ्चिद् अस्त्रं प्रत्यवकर्षणम्। जह्यस्त्र तेज उन्नद्धम् अस्त्रज्ञो ह्यस्त्र तेजसा। श्रुत उवाच श्रुत्वा भगवता प्रोक्तम् फाल्गुनः परवीरः स्पृष्टापस्तम् परिक्रम्य ब्राह्मम् ब्राह्माय संदधे। संहत्यानोन्यमुभयोस्तेजसी शरसंवृते आवृत्तरोदशिखम् च बभृद्धातेर्कवहनिवत्। दृष्ट्वास्तेजस्तु तयोस्त्रिलोकान् प्रदहन् महत् दह्यमानः प्रजा सर्वा सांवर्तकममंसत। प्रजोपप्लवमालक्ष्य लोकव्यतिकरम् च तम् मतम् च वासुदेवस्य संजहारार्जुनद्वयम्। तत आसाद्य तरसा दारुणम् गौतमी सुतम् बबन्धामर्षताम्राक्ष पशुम् रसनया यथा। शिबिराय निनेशन्तम् दाम्ना बद्ध्वा रिपुम्बलात् प्रहार्जुनम् प्रकुपितो भगवान् अम्बुजे क्षणः। नैनम् पार्थार्हसि त्रातुम् ब्रह्म बन्धुमिमम् जहि योऽसावनागसः सुप्तान् अवधीन्निषि बालकान्। मत्तम् प्रमत्तमुन्मत्तम् सुप्तम् बालम् स्त्रियम् जडम् प्रपन्नम् विरथम् भीतम् न रिपुम् हन्ति धर्मवित्। स्वप्राणान् यः परः प्राणै प्रपुष्णात्य घृणः खलः तद्वधस्तस्य हि श्रेयो यद्दोषाद् यात्यधः पुमान्। प्रतिश्रुतम् च भवता पाञ्चाल्यै शृण्वतो मम आहरिष्ये शिरस्तस्य जस्ते मानिनि पुत्रः। तदसौ बध्यताम् पाप आततायात्मबन्धुवा भर्तुश्च विप्रियम् वीर कृतवान् कुलपांसनः। एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः नेक्षध्वन्तुं गुरुसुतं यदप्यात्महनं महान्। अथोप्यत्य स्वशिबिरं गोविन्द प्रियसारथिः न्यवेदयत्तं प्रियायै सोचन्त्या आत्मजानहतन्। तथा हृतं पशुवत्पाशबद्धम् अवाङ्मुखं कर्म जुगुप्सितेन निरीक्ष कृष्णापकृतम् गुरोः सुतम् वाम स्वभावा कृपया न नाम च। उवाच चासहम् तस्य बन्धना नयनम् सति मुच्यतामेष ब्राह्मणो नितराम् गुरुः। स रहस्यो धनुर्वेदः स विसर्गोपसंयमः अस्त्रग्रामश्च भवता शिक्षितो जदनुग्रहात्। स एष भगवान् द्रोणः प्रजारूपेण वर्तते तस्यात्मनोर्ध्वम् पत्न्यास्ते नान्वगाद्वीरसुः कृपि। तद्धर्मज्ञमहाभाग भवद्भिर्गौरवम् कुलम् वृजिनम् नार्हति प्राप्तुम् पूज्यम् वन्द्यमभीक्ष्णशः। मारोदीदस्य जननी गौतमी पतिदेवता यथाहमृतवत्सार्ता रोदिम् यश्रुमुखी मुहुः। यहि कोपितम् ब्रह्मकुलम् राजन्यैरजितात्मभिः तत्कुलम् प्रदहत्याशु सानुबन्धम् सुचार्पितम्। श्रुत उवाच धर्म्यम् न्याय्यम् सकरुणम् निर्व्यलीकम् समम् महत् राजा धर्मसुतो राज्ञः प्रत्यनन्दद्वचो द्विजः। नकुलः सहदेवश्च युधानो धनञ्जयः भगवान् देवकी पुत्रो ये चान्ये याश्च योषितः। तत्राह मर्षितो भीमस्तस्य श्रेयान् बध स्मृतः न भर्तुर्नात्मनश्चार्थे योहन् सुप्तांशि संवृथा। निशम्य भीमगदितम् द्रौपद्याश्च चतुर्भुजः आलोक्य बदनम् सख्युरिदमाह हसन्निव। श्री भगवान वाच ब्रह्म बन्धुर्न हन्तव्य आततायी वधार्हणः मयैवोभयमाम्नातम् परिपाह्यनुशासनम्। कुरु प्रतिश्रुतम् सत्यम् यत्तत् सान्त्वयता प्रियाम् प्रियम् च भीमसेनस्य पाञ्चाल्या मह्यमेव च। सुत उवाच अर्जुन सहसाज्ञाय हरेर्हार्दमथासिना मणिम् जहार मूर्धन्यम् द्विजस्य सह मूर्धजम् विमुच्य रसनाबद्धम् बालहत्या हत प्रभम् तेजसा मणिना हीनम् शिविरा निरयापयत् वपनम् द्रविणादानम् स्थाना निर्यापणम् तथा एष हि ब्रह्मबन्धूनाम् वधो नान्योऽस्ति दैहिकः पुत्र शोकातुरा सर्वे पांडवा सह कृष्णया स्वानामृतानाम यत्कृत्यम चक्रुर्निर्हरणादिकम् इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां प्रथमस्कन्धे द्रौणी निग्रहो नाम सप्तमोऽध्यायः।